प्रमन्महेशवसादायशोषमाङ्गुशङ्गिर्वणसे अङ्गिरस्वत् सुवृक्तिभिस्तुमतरग्मिजाजार्चा मार्कन्नरे विश्रुताय प्रभो महे महि नमो भरध्वमाङ्गोष्यं शवसानायसाम येनानः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसोगा अविन्दन् इन्द्रस्याङ्गिरसाञ्चेष्टौ विदत्सरमातनजायधासिम् बृहस्पतिर्भिनदद्रिम् विदद्गाः समुस्रिजाभिर्वावशन्तनराः स सुष्ठुभासस्तु भा सप्त विप्रै स्वरेणाद्रिम् स्वर्यो न भग्वैः शरण्यभिः फलिगमिन्द्रशक्रफलम् रवेणदरजोदशग्वैः कृणानो अङ्गिरोभिर्दस्मविमरुषसा सूर्येण गोभिरन्धाः विभौम्या अप्रथय इन्द्रसानु दिवो रज उपरमस्तभायः तदुप्रयक्षतममस्य कर्म तस्मस्य चारुतममस्तिदं साः उपह्वरे यदुपरा अपिन्वन्मध्वर्णसो नद्या अश्चतस्रः द्विता विवौरे सनजासनीळे अजास्यस्तममानेभिरर्कैः भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदंसाः स नाद्दिवम् परिभोमाविरोपे पुनर्भुवायुवते स्वेभिरेवैः कृष्णेभिरक्तो शारुषद्भिर्वपुर्भिराचरतो अन्यान्या सनेमि सख्यम् स्वपस्य मानः सोऽनुर्दाधारशवसा सुदंसाः आमासुचिद्दधिषे पक्वमन्तः पयः कृष्णासुरुषद्रोहिणीषो सनात्सनीळा अवनीरपाता व्रता रक्षन्ते अमृताः सहोभिः पुरोसहस्राजनयो न पत्नीर्दुभस्यन्ति स्वसारो अह्रजाणम् सनायुवो नमसा नव्यो अर्कैर्वसूयमो मतयो दस्मदद्रुः पतिन्न पत्नीरुषति रुषन्तम् स्पृशन्ति त्वा शवसावन्मनीषोः स न देवतमराजोगभस्तौ न क्षीयन्ते नोपदस्यन्ति तस्म युमाङ्कसिक्रतुमाङ्किन्द्रधीरशिक्षा शचीवस्तव नश्यचीभिः स नायते गोतम इन्द्रनव्यमदक्षद्ब्रह्महरिजोजनाय सुनेथाय नः शवसा ननोधाः प्रातर्मक्षोधिजावसुर्जगम्यात्